सर्वेभ्यो नमः. अस्माकं प्रवर्तमानः विषयः भविष्यत्कालरूपम् इति अस्ति. अस्मिन् विषये गतवर्गे वयम् एकां कथां पठितवन्तः. आञ्जनेयः अपि सीता अपि रामः लक्ष्मणः सर्वं तत्र. यदि आञ्जनेयः सीतां न पश्यति तस्मिन् सन्दर्भे किं किं भवति इति तादृश कथां पठितवन्तः. तत्र कथायामपि केचन अभ्यासाः सन्ति, किन्तु तस्य पूर्वं प्रायशः तत्र केवलम् अभ्यासार्थं तत्र लृट्लकारस्य रूपं कीदृशमिति एकवारं पुनस्मरणं कुर्मः. तत्र शुभा भगिनी, तत्र चलति इति पदस्य लृट्लकाररूपं किं भवति?
चलिष्यति, चलिष्यतः, चलिष्यन्ति, चलिष्यसि, चलिष्यतः, चलिष्यथ, चलिष्यामि, चलिष्यावः, चलिष्यामः.
हा, इति समीचीनं भगिनि. अस्तु, अरुणा भगिनी, तत्र परस्मैपदी कृतम्, इदानीं तत्र आत्मनेपदी वृत् धातुः किं भवति? लृट्लकारः वृत् धातुः वर्तिष्यते इति पेज् 111 मध्ये दत्तमस्ति. एतत् सर्वं केवलं पुनस्मरणार्थं.
वर्धिष्यति, वर्धिष्यतः, वर्धिष्यन्ति, वर्धिष्यति, वर्धिष्यतः.
न, तत्र आत्मनेपदे अस्ति.
वर्धिष्यते, वर्धिष्येते, वर्धिष्येते, वर्धिष्यन्ते, वर्धिष्यसे, वर्धिष्येथे, वर्धिष्यद्वे, वर्धिष्ये, वर्धिष्यावहे, वर्धिष्यामहे.
हा, इति समीचीनं भगिनि. हा, अतः तत्र लृट्लकारस्य रूपस्य किञ्चित् पुनर्स्मरणं कुर्मः इति तावत्. श्रीप्रिया भगिनी, नमस्कारः.
नमस्कारः महोदय.
नमस्कारः भगिनी. अस्तु, इदानीं तत्र अहम् ईमेल् द्वारा एकां हा हरि ओम् शुभोदय वनचेतनी महोदय, नमस्कारः.
हरि ओम् महोदय. इदानीमेव सम्पर्कः सम्यक्
अस्तु महोदय, किन्तु इदानीं सम्यक्तया श्रूयते महोदय.
श्रूयते महोदय. तस्मिन् पृष्ठे वयं स्मः
तत्र महोदय. अहम् ईमेल् द्वारा तत्र स्मरणपत्रे एकं सम्भाषणं प्रेषितवान्. तद् प्रथमतया कुर्मः, पठामः. तत्र कति जनाः आवश्यकाः? तत्र गिरिजा अस्ति, पतिः अस्ति, पुत्रः अस्ति, अपि पुत्री अस्ति, किन्तु प्रायशः जनद्वयं प्रायशः आवश्यकः अस्ति मन्ये. तत्र
चत्वारः.
अस्तु, चत्वारः. अस्तु, गिरिजा, पतिः अपि अजितः अपि पुत्री अपि पुत्री
माता
ओ माता अस्ति अपि पिता अपि अस्ति. अस्तु अस्तु. हा, अतः षड् जनाः. अस्तु, गिरिजा, पतिः, अपि गिरिजायाः पिता इति मन्ये, गिरिजायाः माता, अपि पुत्री, अपि अजितः. अस्तु अस्तु, के कर्तुमिच्छन्ति, पठितुमिच्छन्ति अत्र तत्र?
अहम् इच्छामि महोदय.
अस्तु भगिनी, उषा भगिनी भवति, गिरिजा भवतु, उमा भगिनी भवति, पतिः भवति वा?
ओके.
अपि शुभा भगिनी अजितः?
आं महोदय.
अस्तु, अपि मधुसूदनमहोदय तत्र पिता? केवलमेकमेव वाक्यम् अस्ति किन्तु पिता. अपि श्रीप्रिया भगिनी माता? अस्तु, अन्यत् किं पुत्री आवश्यकं, पुत्री अपि तत्र खलु पुत्री पुत्री अरुणा भगिनी शीतल भगिनी, शीतल भगिनी करोतु, अस्तु शीतल भगिनी करोतु, अस्तु अस्तु उषा भगिनी आरम्भं करोति वा।
आं महोदय, देहलीं गमिष्यामः, गिरिजा विरामसमये कुत्रापि प्रवासं करिष्यामः।
आगामि सप्ताहे मम कार्यालयतः 5 जनाः नवदेहलीं गमिष्यन्ति इति श्रूयते, वयमपि तैः सह गमिष्यामः।
देहल्यां कुत्र वासं करिष्यामः?
ते सर्वेपि धर्मशालायां वासं करिष्यन्ति, भोजनम् उपाहारमन्दिरे करिष्यामः।
तात, श्वः आरभ्य मासं यावत् विरामः अस्ति, वयमपि प्रवासार्थं गमिष्यामः।
आगामिसप्ताहे प्रवासः भविष्यति, चिन्ता मास्तु।
शीतल भगिनी इदानीं माता
माता
का आसीत्? क्षम्यतां भगिनी, तत्र श्रीप्रिया भगिनी आसीत् वा माता इति? श्रीप्रिया भगिनी माता, अस्तु अस्तु श्रीप्रिया भगिनी।
खाद्यानि वयं प्रथमम् एव क्रेष्यामः। पुत्रौ उष्णजलं पास्यतः, तत् कथं नेष्यामः?
समीचीनं, जलं मार्गे अपि भविष्यति, तत् वयं क्रेष्यामः।
खाद्यानि वयं प्रथमम् एव क्रेष्यामः, देहल्याम् अतिशैत्यम्, अतः अधिकानि वस्त्राणि स्वीकरोतु।
तत्र गन्तुं कः चितिकः क्रेष्यति?
पिता कः आसीत्? मधुसूदन महोदय एव।
महोदय, अहं चितिकाः आनेष्यामि।
अग्रज, त्वं कुत्र उपवेक्षसि?
अहं वातायनपार्श्वे उपवेक्ष्यामि।
युवां मम पार्श्वे उपवेक्ष्यथः, गमनसमये निद्रां करिष्यथः।
एवं समीचीनं, तथैव उपवेक्ष्यावः।
समीचीनं, धन्यवादः। सरलसम्भाषणं, किन्तु तत्र विषयः कः? लृट् लकारः भविष्यत्कालरूपम् इति। तत्र पङ्क्तिशः एकवारं पश्यामः, तत्र देहलीं गमिष्यामः, देहलीम् इति अस्ति, रूपं कीदृशं? तत्र विभक्ति का?
द्वितीयविभक्ति।
द्वितीयविभक्ति, देहली इति कर्मपदं, देहली इति लिङ्गं किम्?
स्त्रीलिङ्गं,
नदीशब्दवत्, अतः देहलीं गमिष्यामः। अत्र कर्तृपदं किम्?
वयं
न दत्तं, किन्तु तत्र ज्ञातुं शक्नुमः तत्र गमिष्यामः इति अस्ति, अतः उत्तमपुरुष बहुवचन इति। अस्तु, वयं देहलीं गमिष्यामः। अस्तु, विरामसमये कुत्रापि प्रवासं करिष्यामः। करिष्यामः इति लट्लकारः, लट्लकाररूपं किम् अस्ति?
कुर्मः,
कुर्मः। विरामसमये सप्तमीविभक्ति, कुत्रापि प्रवासं, प्रवासं किम् अस्ति? टूर्, तत्र कर्मपदं वा किम् अत्र? कर्मपदम् अत्र,
समीचीनं।
करिष्यामः, करिष्यामः कीदृशपदं, तस्य कर्मपदं भवति वा? कोऽपि वदति करोति अस्ति चेत् किं करोति, किं करोति इति प्रश्नः भवति खलु, अतः तत्र कर्मपदम् अस्ति, तत्र प्रवासं करिष्यामः।
अर्थं किं
प्रवासं? प्रवासम् इत्युक्ते ट्रिप्, ट्रिप् इति,
ट्रिप्,
प्रवासं। तत्र पुल्लिङ्गपदम् इति मन्ये, तत्र प्रवासः इति अस्तु अग्रे आगामिसप्ताहे आगामिसप्ताहे इत्युक्ते कदा
अग्रिमसप्ताहे
अस्मिन् सप्ताहे न किन्तु किन्तु तस्य अनन्तरं तस्य अनन्तरसप्ताहम् अस्तु मम कार्यालयतः पञ्चजनाः नवदेहलीं गमिष्यन्ति तत्र सप्ताहे इति तत्र विभक्तिका कोऽपि वदति वा सप्ताहे सप्तविभक्ति समीचीनं हा अस्तु मम कार्यालयतः तत् अग्रिमविषयः अस्ति अस्माकं पञ्चमी विभक्ति इति कार्यालयतः इति कार्यालयात् इति रूपमपि वयं पश्यामः अग्रे कार्यालयतः पञ्चमीविभक्तिरूपं पञ्चजनाः इत्युक्ते ततः पञ्चजनाः नवदेहलीं गमिष्यन्ति इति श्रूयते वयमपि तैः सह इति रूपं कीदृशं
तृतीयविभक्ति
तृतीयविभक्ति तत्र कीदृशवाक्यं भवति रामः सीतया सह अरण्यं गतवान् वनं गतवान् इति हा तैः सह इति तादृशार्थे गमिष्यामः देहल्यां कुत्र वासं करिष्यामः देहल्यामपि सप्तमी कुत्र वासमिति कर्मपदं पुनः ते सर्वे अपि ते इत्युक्ते के पञ्चजनाः हा पञ्चजनाः यस्मिन् विषये पतिः पूर्वम् उक्तवान् ते पञ्चजनाः सर्वे अपि धर्मशालायां वासं करिष्यन्ति करिष्यन्ति तत्र करिष्यन्ति इति लृट्लकारः अस्ति लट्लकाररूपं किम् अस्ति
कुर्वन्ति
वासं कुर्वन्ति भोजनम् उपहारमन्दिरे करिष्यामः उपहारमन्दिरे इत्युक्ते
केन्टीन्
हा केन्टीन् अथवा
सप्तमीभक्ति
हा अस्तु
धर्मशालायामपि
सप्तमी धर्मशाला इत्युक्ते चौल्ट्री इति तादृश इदानीमपि बहुत्र नास्ति किन्तु यथा एतद् तस्य मुद्रणं जातं तस्मिन् समये एतत् सर्वम् आसीत् हा अस्तु ताता ताता इति किं तादृश अस्तु ताता इति श्वः आरभ्य एतद् वयं प्रायशः पूर्वं दृष्टवन्तः अद्य आरभ्य इति तादृश श्वः आरभ्य मासं यावत् विरामः अस्ति इत्युक्ते किं
श्वः आरभ्य एकमासपर्यन्तं
विरामः अस्ति हा बहुदिन विरामः बहुदिनानि यावत् अस्ति विरामः वयमपि प्रवासार्थं गमिष्यामः तत्र प्रवासार्थं गमिष्यामः इत्युक्ते प्रवासं कुर्मः करिष्यामः समानार्थकं प्रवासार्थं गमिष्यामः गमिष्यामः इति लट्लकाररूपं किम्
गच्छामः
अस्तु आगामिसप्ताहे प्रवासः भविष्यति चिन्ता मास्तु तत्र भविष्यति इति लट्लकाररूपं लट्लकाररूपं किम् अस्ति
भवति
हा चिन्ता मास्तु अस्तु पुत्रौ उष्णजलं पास्यतः तत् कथं नेष्यामः पुत्रौ उष्णजलं पास्यतः तत्र लकारः कः अत्र हा अत्र लृट् किन्तु लट्लकाररूपं किम् अस्ति
पिबतः
हा उष्णजलं तत्र देहल्यां शैत्यं भवति इति कृत्वा अस्मिन् विषये चिन्ता भवति पुत्रौ उष्णजलं पास्यतः तत् कथं नेष्यामः समीचीनं जलं मार्गे अपि भविष्यति, नेष्यामः. हा, तत्र नेष्यामः लट्लकररूपं किम् अस्ति? नयामः. नयामः, समीचीनं समीचीनं. हा, समीचीनं जलं मार्गे अपि भविष्यति, तत् वयं क्रेष्यामः. क्रेष्यामः इति क्रीणीमः. क्रीणीमः, क्षम्यताम्. धन्यवादः भगिनी. हा, क्रीणीमः. हा, तत्र भवति अपि तत् वयं क्रीणीमः. खाद्यानि वयं प्रथमम् एव क्रेष्यामः. देहल्याम् अतिशैत्यम्, अतः अधिकानि वस्त्राणि स्वीकरोतु. अस्तु, तत्र क्रेष्यामः पूर्वमेव दृष्टवन्तः. तत्र गन्तुं कः चीटिकाः क्रेष्यति? क्रीणी तत्र क्रेष्यति इति लट्लकरूपं क्रीणाति. अस्तु, चीटिकाः इति तत्र वचनं किं? वचनं किं?
बहुवचनं.
हा, विभक्ति
द्विवचनं.
न न न, वचनं बहुवचनं. विभक्ति 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 द्वितीय. समीचीनम्. अत एव पूर्वं वचनस्य प्रश्नः कृतवान्. हा, प्रश्नं कृतवान्. हा, वचनं तु बहुवचनं, किन्तु क्रेष्यति इति पदस्य क्रियापदस्य कर्मपदमस्ति चीटिकाः. तत्र आकारान्तस्त्रीलिङ्गे वयं जानीमः बहुवचने प्रथमाविभक्ति अपि द्वितीयविभक्तिरूपसमानम् समानम् इति कृत्वा तत्र चीटिकाः प्रथमाविभक्ति अपि द्वितीयविभक्ति द्वयमपि भवितुम् अर्हति, किन्तु क्रेष्यति इति अस्ति, तस्य कर्मपदम् आवश्यकम्. अतः चीटिकाः क्रेष्यति. किं क्रेष्यति? चीटिकाः क्रेष्यति इति. अहं चीटिकाः आनेष्यामि. आनेष्यामि इति लट्लकरूपम् आनयामि. आनयति अथवा अत्र आनयामि. समीचीनम्. अस्तु, अग्रज, त्वं कुत्र उपवेक्ष्यसि? उपवेक्ष्यसि, उपविशसि.
उपविशसि,
उपविशसि. अहं वातायनपार्श्वे उपवेक्ष्यामि. वातायनम् इत्युक्ते वातायनं पार्श्वे उपवेक्ष्यामि. युवां मम पार्श्वे उपवेक्ष्यतः. हा, तत्र उपवेक्ष्यतः इति अस्ति, तत्र लट्लकररूपं किम्? वयं जानीमः तदेव रूपम्, अन्तिमभागः समानमेव, किन्तु लट्लकारः लृट्लकारः तत्र मध्ये किञ्चित् परिवर्तनं भवति, स्य इति आगच्छति, किन्तु अन्तिमभागः तः एव अस्ति. हा, गमनसमये निद्रां करिष्यतः. तत्र लट्लकारे रूपं किं?
कुरुतः.
कुरुतः. हा, अस्तु, एवं समीचीनं. तथैव उपवेक्ष्यावः. हा, उप लट्लकारे लट्लकारे किं भवति? उपविशावः. उपविशति, उपविशतः, उपविशन्ति इति. उपविशामि, उपविशावः, उपविशामः इति किम् इति अस्ति इति मन्ये. अस्तु, सरलसम्भाषणं, किन्तु तत्र लृट् लकारस्य पुनस्मरणं जातम् इति मन्ये, खलु? अस्तु अस्तु, तत्र लकारस्य प्रयोगः दृष्ट्वा बहु किमपि मनसि अवगमनं भवति इति कृत्वा तत् मया स्वीकृतम् एतत् सम्भाषणम्. अस्तु, इदानीम् अग्रे सरामः. तत्र गीतासोपाने पुटसङ्ख्या 117 तत्र 116 मध्ये कथां पठितवन्तः. अस्तु, तत्र अस्तु, एतत् कुर्मः. एतत् बहुवारम् अहं न कृतवान् वर्गे, किन्तु अद्य किञ्चित् कुर्मः. तत्र एतत् किं मालारूपेण सर्वे भवन्तः सर्वे कथां वदन्ति मालारूपेण इत्युक्ते वाक्यद्वयं 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 प्रत्येकः केवलं वाक्यद्वयं वदति, अस्तु कथायाः विषये किं किं भवति इति। किन्तु अस्तु, उषा भगिनी आरम्भं करोति वा?
आं महोदय।
केवलं वाक्यद्वयं, तदपि दीर्घवाक्यं नास्ति, दीर्घवाक्यं मास्तु, वाक्यद्वयं। अस्तु भगिनि वदतु।
सीतायाः अन्वेषणार्थम् आञ्जनेयः समुद्रलङ्घनं कृत्वा लङ्कां गतवान्।
आगतवान्, अस्तु गतवान् अथवा गतवान्, अस्तु भवत्याः कथा किं किमपि वदतु। अस्तु,
किं वदामि,
वाक्यद्वयम्, एकं वाक्यं।
तत्र सर्वेषु भवनेषु सीताः अन्वेषणं कृतवान्।
अस्तु,
अन्वेषणं कृतवान्।
अस्तु, उमा भगिनी इदानीं।
कुत्रापि सीता न,
न, न, इदानीं ततः ततः भवती वक्तव्यं, तत्र पठनीयं न, स्वशब्दैः वक्तव्यम्।
ओके, सः सीतां न प्राप्तवान्, दृष्टवान् कुत्रापि, निराशा भवति,
तस्य आञ्जनेयस्य निराशा भवति,
निराशा भवति।
समीचीनं भगिनि, वाक्यद्वयं पर्याप्तम्। अस्तु, शुभा भगिनि।
स्वस्य वाक्येन वक्तव्यं
वा तत्र? यदि यदि इच्छति, यद् दत्तमस्ति तद् उपयुज्य अपि वदतु भगिनि, चिन्ता मास्तु। चिन्ता मास्तु।
सः एवं चिन्तयति, यदि सीतां न अत्र न दृष्ट्वा गच्छामि, अहं गच्छामि चेत् सुग्रीवः किं वादिष्यति, वानराः किं वादिष्यति, एवं चिन्तयति। रामः, लक्ष्मणः अपि, भरतशत्रुघ्नः अपि च, ते
तत्र वाक्यद्वयं वा वाक्यत्रयं वा अत्र?
तत् न महोदय,
अहं न जानामि, अतः केवलं पृष्टवान्। अस्तु, तत्र किञ्चित् एव वदतु तस्मिन् विषये, पुनरेकवारं वदतु, किन्तु लघुवाक्यं भवतु तत्र।
आं महोदय, यदि अत्र सीतां न दृष्ट्वा गच्छामि चेत्, एतत् वार्तां वदामि चेत्, सुग्रीवः किं वा मया सह वदिष्यति, अनन्तरं प्राणान् त्यक् सः प्राणान् न धरिष्यति इति चिन्तयति।
समीचीनं भगिनि, अस्तु अग्रे शीतल भगिनी वदति वा? एतां कथां जानाति वा भगिनि?
प्रयत्नं करोमि।
यदि यदि गतवर्गे भवती नासीत् इति मन्ये, अतः अग्रे करोतु भगिनि, अग्रे करोतु, शृणोतु। अस्तु, अरुणा भगिनी किञ्चित् वदति वा?
आं महोदय, आञ्जनेय चिन्तयति, अहं रामात् वदति, अहं
रामं वदामि, यदि वदामि
रामः प्राणान् त्यजति
त्यजति
तथा लक्ष्मणः अपि मारयति,
मरणं प्राप्नोति, मारयति इत्युक्ते अन्यान् कोऽपि तादृशमस्ति, सः तस्य मरणं प्राप्नोति, प्राणान् त्यजति। समीचीनं भगिनि, मधुसूदन महोदय वाक्यद्वयं वदति वा?
यदि अहं सीतां न लब्ध्वा किमर्थं वदिष्यामि इति आञ्जनेयः चिन्तयति, अहं रामं कथं वदिष्यामि, तथा रामः प्राणान् त्यक्षयति इति चिन्तयति।
चिन्तयति. अस्तु अस्तु, समीचीनं भगिनि, समीचीनं महोदय. अस्तु, श्रीप्रिया भगिनी वक्तुम् इच्छति वा तत्र अथवा?
आं महोदय. भरतः शत्रुघ्नः अपि प्राणान् त्यजन्ति जयतः. अतः पुत्रशोकात् कौसल्या सुमित्रा अपि तेषां प्राणं त्यजामः.
कौसल्या सुमित्रा कैकेयी प्राणान् त्यजन्ति.
समीचीनं
समीचीनं भगिनि. बाणचित्रिणी महोदय किञ्चित् वदति वा अत्र? वदतु महोदय.
अतः सः निश्चयं कृतवान् अहं सीतान्वेषणम् अकृत्वा न गमिष्यामि.
तदनन्तरं अन्यत् वाक्यं?
तदेव महोदय.
तदेव. अस्तु 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 महोदय. अस्तु, हा, तत्र एतस्य अभ्यासस्य अर्थः कः इत्युक्ते, स्वशब्दैः यदि वयं यत् पठितवन्तः तदेव वयं स्वशब्दैः वक्तुम् अथवा वक्तुं प्रयत्नं कुर्मः, तत्र बहु किमपि लाभः अस्ति तत्र. ततः एव व्याकरणस्य किं करणीयं, किं वक्तव्यं, वाक्यं कीदृशं, वाक्यं कथं रचनीयम् इति सर्वं मनसि भवति. नो चेत् यद्दत्तमस्ति तदेव पठामः. तत्र क्रियापदस्य अभ्यासः अस्ति, लकारस्य अभ्यासः भवति, विभक्तेः अभ्यासः भवति, किन्तु तत्सर्वं मिलित्वा किं करणीयम् इति यदि स्वशब्दैः वदामः भवति इति. अतः एव एतादृश अभ्यासः आसीत्. अस्तु, इदानीं तत्र
एतत् अभ्यासं कारयतु महोदय, तत् बहु उपयोगं भविष्यति.
अस्तु 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 अस्तु, कुर्मः. अतः अतः अद्य आरभ्य वर्गे बहुवारं कुर्मः एतादृश अभ्यासः. अस्तु, इदानीं तत्र कथायाः सारांशः सर्वे जानन्ति इति मन्ये, सारांशं किम् इति. अत्र अपि यदि वयम् अत्र दत्त अभ्यासद्वयं कुर्मः तत्रापि वयं कथायाः विषये एव अस्ति, अतः कथां अवगन्तुं शक्नुमः. अस्तु, तत्र गतवर्गे वयं प्रथम अभ्यासः कृतवन्तः इति मन्ये, पेज् 117 मध्ये द्वितीय अभ्यासः कुर्मः तत्र. तत्र अरुणा भगिनी आरम्भं करोति वा द्वितीय अभ्यासः? पेज् 117 मध्ये
रेखाङ्कितं शब्दम् अधिकृत्य एतेषाम् उत्तरवाक्यानां प्रश्ननिर्माणं कुरुत.
तत्र अवगच्छति वा किं करणीयम् इति?
प्रश्नवाक्यं
प्रश्नः आवश्यकमस्ति, आवश्यकः अस्ति अत्र. कीदृशप्रश्नः? यस्य उत्तरम् एतद् वाक्यं भवति. किन्तु तत्र यदि रामः ग्रामं गच्छति इति वाक्यमस्ति चेत् तत्र तत् उत्तरमस्ति चेत् कीदृशप्रश्नः तत्र भवति, भवितुम् अर्हति? रामः ग्रामं गच्छति अस्ति चेत् केवलम् एकः प्रश्नः अस्ति वा तत्र? रामः ग्रामं गच्छति इति उत्तरमस्ति इति उत्तरमस्ति, किन्तु प्रश्नः कः तत्र?
कुत्र गच्छति?
रामः कुत्र गच्छति इति एकम्. अस्तु, अन्यः प्रश्नः अस्ति वा तत्र? कः गच्छति, कुत्र गच्छति इति. अतः अत्र किम् अस्ति, सीताम् इति तदेव प्रश्नस्य उत्तरं भवेत् इति. तत्र कः ग्रामं गच्छति इति अस्ति चेत् रामः ग्रामं गच्छति उत्तरमस्ति चेत् तत्र रामः शब्द किं भवति तत्र? रामशब्दः रेखाङ्कितः रेखाङ्कितं भवति अथवा प्रश्नः अस्ति रामः कुत्र गच्छति अस्ति चेत् रामः ग्रामं गच्छति तत्र किं पदं रेखाङ्कितं भवति ग्रामम् इति ग्रामम् इति अतः तत्र सीताम् इति रेखाङ्कितम् अस्ति तादृशप्रश्नः आवश्यकः अस्ति
आञ्जनेयः अशोकवने कां पश्यति
हा समीचीनं भगिनी समीचीनं भगिनी हा आञ्जनेयः अशोकवने कां पश्यति समीचीनं भगिनी अस्तु इदानीम् उमा भगिनी द्वितीयं करोति वा
वार्तां श्रुत्वा भरतः शत्रुघ्नः च प्राणान् त्यक्ष्यतः भरतः शत्रुघ्नः
इति उत्तरं भवितम् अतः प्रश्ने प्रश्ने भरतः शत्रुघ्नः प्रश्नवाक्ये भरतः शब्दः नास्ति शत्रुघ्नः शब्दः अपि नास्ति तादृशप्रश्नः आवश्यकम् आवश्यकः अतः
वार्तां श्रुत्वा कौ प्राणान् त्यक्षतः
अथवा तत्र यदि उत्तरं न जानीमः तत्र प्रश्नः किं भवति वार्तां श्रुत्वा कः प्राणान् त्यक्ष्यति इति भवति अत्र उत्तरं जानीमः इति कृत्वा वयं वक्तुं शक्नुमः कौ प्राणान् त्यक्षतः इति समीचीनं भगिनि अस्तु
महोदय च अपि आयति वा महोदय प्रश्नवाक्ये
न केवलं कौ इति खलु
वार्तां श्रुत्वा कौ प्राणान् त्यक्षतः
तावदेव च च इति नास्ति अतः च अपि रेखाङ्कितं भवितव्यम् इति वा प्रायशः
द्विवारं कः कः समीचीनं वा
तदपि समीचीनं तदपि
समीचीनं
कः कः प्राणान् त्यक्षतः समीचीनं महोदय भगिनि तदपि समीचीनम् एव
किन्तु अत्र त्यक्षतः इति दत्तमस्ति खलु
कः कः त्यक्षति इति कः कः अस्ति चेत् त्यक्षति इति भवति सत्यं किन्तु तादृशवाक्यमपि भवति अत्र केवलं रेखाङ्कितपदम् एव तस्य परिवर्तनमेव करणीयम् इति आशा अस्ति इति चिन्तयामः अस्तु अग्रे मधुसूदन महोदय प्रयत्नं करोति वा तृतीय वाक्यं
महोदय वानराः मुष्टिभिः मस्तकान्
ताडयिष्यन्ति
वानराः कैः मस्तकान् ताडयिष्यन्ति
बहु समीचीनमस्ति महोदय अस्तु समीचीनम् अस्तु बाणचित्रिणी महोदय अग्रे
महोदय अत्र काभिः
केन
काभिः
मुष्टिभिः इति मुष्टिः इति स्त्रीलिङ्गपदम् इति कृत्वा काभिः अपि समीचीनम् अपि कैः अपि समीचीनं यतोहि यत्र उत्तरं न जानीमः अथवा अस्तु उत्तरं न जानीमश्चेत् अस्तु 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 एकनिमिषः अस्तु तत्र तत्र उत्तरं न जानीमश्चेत् किं भवति सर्वदा नपुंसकलिङ्गे एकवचने एव प्रश्नः भवति अतः केन इति भवति केन इति भवति अथवा काभिः इति काभिः समीचीनं समीचीनं
मुष्टिभिः
मुष्टिः इति स्त्रीलिङ्गपदम् इति कृत्वा अस्तु किन्तु समीचीनं तृतीयविभक्ति इति ज्ञात्वा उत्तरं दत्तवान् समीचीनं महोदय अस्तु सर्वेषां धन्यवादाः समीचीनम् अस्तु बाणचित्रि महोदय
वानराः तथा क्रीडासुखं न अनुभविष्यन्ति कः के
समीचीनं वा तत्र रेखाङ्कितपदं तस्य उपयोगम्
अधिकृत्य वानराः किं न अनुभविष्यन्ति
ततः किं न अनुभविष्यन्ति. समीचीनं महोदय. ततः किं न अनुभविष्यन्ति. समीचीनं महोदय. श्रीप्रिया भगिनी अग्रे.
आञ्जनेयः सर्वेषु भवनेषु सीतायाः अन्वेषणं कृतवान्. आञ्जनेयः कुत्र सीतायाः अन्वेषणं कृतवान्?
हा समीचीनं भगिनि. अस्तु अस्तु.
केषु
अपि शक्यते महोदय?
तत्र भवनेषु अपि रेखाङ्कितम् अस्ति खलु. हा यदि आञ्जनेय केवलं सर्वेषु इति रेखाङ्कितम् आसीत् चेत् केषु भवनेषु इति वक्तुं शक्नुमः, किन्तु भवनेषु अपि रेखाङ्कितम् अस्ति.
कीदृशं केषु?
अतः कुत्र अथवा हा कुत्र अथवा उत्तरं सप्तमीविभक्तिरूपम् अस्ति इति कृत्वा किं यदि न जानीमः तत्र उत्तरं पुल्लिङ्गपदं वा स्त्रीलिङ्गपदं वा वचनं वा न जानीमः चेत् किं भवति तत्र प्रश्नः? नपुंसकलिङ्गे एकवचने हा अतः किं भवति तत्र कुत्र इति एकम् अस्ति किन्तु तत् सप्तमीविभक्तिरूपं वस्तुतः नास्ति खलु. किन्तु सप्तमीविभक्तिरूपं किम् अस्ति? कः इति पदस्य अथवा किम् इति पदस्य हा किम् इति पदस्य सप्तमीविभक्ति एकवचनं कस्मिन्. कस्मिन् सीतायाः अन्वेषणं कृतवान् इति अथवा कुत्र इति अपि वयं तत्र उत्तरम् अवगन्तुं शक्नुमः कुत्रापि साधु अत्र. अस्तु अस्तु समीचीनम्. अस्तु अग्रे शुभा भगिनी अग्रिमम् आरम्भं करोति वा?
आम् महोदय. एतेषां वाक्यानां भविष्यत्कालक्रियापदानां स्थाने वर्तमानकालरूपाणि लिखत. यदि अहं सीताम् अदृष्ट्वा एव किष्किन्धां गमिष्यामि तर्हि कः पुरुषार्थं साधितः भविष्यति? कः पुरुषार्थः साधितः भविष्यति? यदि अहं सीताम् अदृष्ट्वा एव किष्किन्धां गच्छामि तर्हि कः पुरुषार्थः साधितः भवति?
हा समीचीनं भगिनि. समीचीनं तावदेव. अस्तु एतादृश अभ्यासमेव वयं सम्भाषण समये अपि तत्र सन्दर्भे अपि कृतवन्तः खलु वर्तमानकालरूपम्. अस्तु समीचीनम्. अस्तु शीतल भगिनी अग्रिमं करोति वा?
सुग्रीवः तदा मां किं वा वदिष्यति? सुग्रीवः तदा मां किं वा वदति?
हा समीचीनं भगिनी तावदेव. अस्तु अरुणा भगिनी अग्रे.
यदि अहं तथा वदिष्यामि तर्हि रामः प्राणान् त्यजति. यदि अहं तथा वदामि तर्हि रामः प्राणान् त्यजति.
हा समीचीनं भगिनी. अस्तु अग्रे मधुसूदन महोदय करोति वा?
महोदय तत्पश्चात् कुमारः अङ्गदः मरणं
प्राप्स्यति.
तत्पश्चात् कुमारः अङ्गदः मरणं प्राप्नोति.
हा प्राप्नोति. प्राप्नोति. समीचीनं महोदय. कुमारः अङ्गदः इत्युक्ते राजकुमारः युवराजः इति वदामः. हा कुमारः अङ्गदः अथवा अत्र कुमारः राजकुमारः सुग्रीवस्य कुमारः अपि पुत्रः इति अर्थे अपि. हा अस्तु समीचीनं. श्रीप्रिया भगिनी अग्रे.
केऽपि वानराः ततः क्रीडासुखं न अनुभविष्यन्ति. केऽपि वानराः ततः क्रीडासुखं सुखं न अनुभवन्ति.
हा समीचीनं भगिनि. अस्तु बालचितनी महोदय अग्रे.
तदा वानराः दुःखेन मुष्टिभिः मस्तकान् ताडिष्यन्ति प्राणत्यागं च करिष्यन्ति. तदा वानराः दुःखेन मुष्टिभिः मस्तकान् ताडयन्ति प्राणत्यागं च कुर्वन्ति.
प्राणत्यागं च कुर्वन्ति. समीचीनं महोदय. अस्तु उमा भगिनी.
वानराः शिलाग्रेभ्यः अधः पतिष्यन्ति, विषं वा पास्यन्ति, उपवासव्रतं वा आचरिष्यन्ति. ओके, वानराः शिलाग्रेभ्यः अधः पतन्ति, विषं वा पिबन्ति, उपवासव्रतं वा आचरन्ति.
हा समीचीनं भगिनि, हा समीचीनं. उषा भगिनी अग्रे.
अहं सुग्रीवं द्रष्टुं न शक्ष्यामि, अत्रैव वानरप्रस्थव्रतं वानप्रस्थव्रतं ग्रहिष्यामि. अहं सुग्रीवं द्रष्टुं न शक्नोमि, अत्रैव वानप्रस्थव्रतं गृह्णामि.
गृह्णामि, समीचीनं भगिनि. शुभा भगिनि अन्तिमम्.
ततः चितां प्रवेक्ष्यामि, अत्रैव जीविष्यामि, नैव प्रतिगमिष्यामि. ततः चितां प्रवेशयामि, प्रविशामि वा?
प्रविशामि इति मन्ये.
प्रविशामि, अत्रैव जीवामि, नैव प्रतिगच्छामि.
नैव प्रतिगच्छामि, समीचीनम्. अस्तु, तत्र एकः प्रश्नः अस्ति. तत्र भवतः इत्युक्ते तद् तस्य अर्थः कः? भवतः
महोदय,
न केवलं भवतः इत्युक्ते, भवतः इत्युक्ते किं?
भवान् षष्ठी विभक्ति, पञ्चमे विभक्ति.
भवतः इति पञ्चमविभक्ति, षष्ठी विभक्ति, वचनं किम्?
एकवचनम्.
अस्तु, तत्र अन्य अर्थः अस्ति वा? भवती, भवतः, भवन्ति, भवतः तत्रापि आगच्छति. भवतः क्रियापदमपि अस्ति, नामपदमपि अस्ति. तत्र मनसि आगतं किमर्थं चेत् तत्र भवन्ति इति आसीत् खलु, तत्र अनुभवति, अनुभवतः, अनुभवन्ति, तत्र भवतः इति रूपम् आसीत् तत्र. अस्तु अस्तु, तर्हि तत्र अग्रे किम् अस्ति? तत्र वर्तमानकाल, भूतकाल, भविष्यत्कालरूपम् अस्ति. तदनन्तरं किं, चतुर्थः किमपि नास्ति इति मन्ये, पञ्चम कुर्मः, तदनन्तरं पञ्चमविभक्ति इति विषयः भवति. तत्र अन्तिम अभ्यासः, तत्र मधुसूदन मोदी आरम्भं करोति वा अन्तिमं पाठे विद्यमानानि इति?
महोदय, पाठे विद्यमानानि वाक्यानि परिशील्य अत्र रिक्तस्थानानि पूरयत. आञ्जनेयः आञ्जनेयः किं
कथं,
आञ्जनेयः सीता
किं
प्रथमवाक्यमस्ति न,
प्रथमवाक्ये एव अस्ति.
सीता आञ्जनेयः समुद्रलङ्कान् कृत्वा,
लङ्घनं कृत्वा लङ्काम् आगतवान्. समीचीनं महोदय, समीचीनं. श्रीप्रिया भगिनी अग्रे.
यदि अहं तथा वदिष्यामि, तर्हि रामः प्राणान् त्यक्ष्यति.
प्राणान् त्यक्ष्यति, समीचीनं. बाणचेतनी महोदय अग्रे.
भरतः शत्रुघ्नः च प्राणान् त्यक्षतः.
पूर्वस्मिन् अभ्यासे अपि एतद् वाक्यम् आसीत्. किं श्रुत्वा, किं श्रुत्वा अथवा कां श्रुत्वा, तत्र उत्तरस्य लिङ्गं जानीमः वा तत्र?
उत्तरस्य लिङ्गं महोदय,
लिङ्गं किं, लिङ्गं किं, ताम् इति अस्ति, अतः लिङ्गं किम् उत्तरस्य? समीचीनं भगिनि. अतः स्त्रीलिङ्गपदं एकवचनं. किं श्रुत्वा भरतः शत्रुघ्नः च प्राणान् त्यक्षतः?
तां
वार्ताम् इति महोदय तत्र पूर्वस्मिन् अभ्यासे आसीत्, चिन्ता मास्तु, अस्तु समीचीनम्, अस्तु अग्रे उषा भगिनी अग्रिमं करोति वा?
तत्पश्चात् कुमारः अङ्गदः मरणं प्राप्स्यति.
हा समीचीनम्, अस्तु अग्रे शुभा भगिनी.
ते अधः पतिष्यन्ति, ते शिलाग्रेभ्यः अधः पतिष्यन्ति.
उपरि एव अस्ति भगिनि, तत्र विषं वा पास्यन्ति, अस्तु तावदेव, अस्तु समीचीनम्, अस्तु तत्र कथां कथायाः समाप्तिः इदानीं तत्र पञ्चमी विभक्ति इति विषयः अस्ति. तत्र पञ्चमविभक्तेः प्रयोगः बहुत्र भवति, वयं सर्वदा कुर्मः. अहं गृहतः किं मन्दिरं गच्छामि इति तादृश, गृहतः अथवा नगरतः इति बहुत्र वयम् एतादृशं प्रयोगं कुर्मः. किन्तु तत्र पञ्चमी विभक्ति इति अस्ति, तस्य रूपं प्रथमतया पश्यामः कीदृशरूपं भवति इति. तत्र तदनन्तरं वयं तस्य प्रयोगः कुत्र कुत्र भवति इति तदपि पश्यामः. तत्र गीतासोपाने कोऽपि वदति वा कीदृश पेटर्न् अस्ति इति? तत्र अस्मिन् अग्रिम अध्यायः अस्ति पञ्चमविभक्ति इति, यत् वयं कृतवन्तः विषयः, यः यं विषयं कृतवन्तः तत् अस्ति लृट् लकारः, तदनन्तरं भवति कथा, तदनन्तरं पञ्चमीविभक्ति इति. तत्र किम् अस्ति, कोऽपि वदति वा? न भगिनि, तत्र एक अध्यायस्य अनन्तरम् अन्यत् अध्यायं कुर्मः गीतासोपाने, विषयः कीदृशः भवति इति. तत्र लकारः कुर्मः, तदनन्तरं संख्या भवति, तदनन्तरं विभक्ति भवति, तदनन्तरं किमपि अन्यत् भवति. तत्र सर्वदा किं भवति, एका विभक्ति नामपदस्य विषयः एकं भवति, तदनन्तरं क्रियापदस्य विषयम् एकं भवति. अत्र क्रियापदस्य विषयः जातं खलु लृट् लकारः इति, इदानीं नामपदस्य विषयं पञ्चमी विभक्ति इति. अस्तु तर्हि तत्र उमा भगिनी पठति वा, तत्र आरम्भं करोति वा?
ओके, लेसन् 29, गाण्डीवं स्रंसते हस्तात्. पञ्चमी विभक्ति पठत अवगच्छत च. अर्जुनः रथात् अवतरति. कण्टिन्यू. कृष्णः मथुरायाः आगच्छति. गोपिकाः नद्याः जलं नयन्ति. आनयन्ति, क्षम्यता. पाण्डवाः राजभवनात् गच्छन्ति.
हा इति समीचीनं भगिनि, धन्यवादः. तत्र रथः अस्ति, अर्जुनः अस्ति. अर्जुनः किं करोति, रथात् अवतरति. सः रथे आसीत्, इदानीं रथात् अवतरति. अत्र कृष्णः अस्ति, कृष्णः मथुरायाः आगच्छति इति अस्ति. अतः कृष्णः कुत्र आसीत् पूर्वं?
मथुरानगरे
आसीत्, अथवा मथुरायाम् अस्ति. मथुरायाः आगच्छति, मथुरानगरात् आगच्छति सः कृष्णः. तत्र मथुरायाः इति स्त्रीलिङ्ग आकारान्त, मथुरा शब्दस्य किं पञ्चमीविभक्तिरूपं, किन्तु एतद्रूपं वयं पूर्वमपि दृष्टवन्तः, षष्टि अपि भवति. किन्तु तत्र वाक्यं दृष्ट्वा वयं जानीमः कीदृशविभक्तिः भवति इति. अस्तु अग्रे, गोपिकाः नद्याः जलम् आनयन्ति इति. तत्र नदी अस्ति, नद्यां जलमस्ति, गोपिकाः नद्याः जलम् आनयन्ति इति. तत्र किमस्ति? तत्र विभक्ति का? तत्र पञ्चमी विभक्ति खलु, नदी नद्याः इति पञ्चमी विभक्ति एव, किन्तु तत्र षष्ठी अपि भवितुम् अर्हति वा? हा, अत्र षष्ठी अपि भवितुम् अर्हति खलु. हा, किन्तु कूपी अस्ति तत्र, कूपीतः
तृतीया भवति तत्र, किन्तु अत्र नदी नदीजलम् इत्युक्ते नद्याः जलं, षष्ठी अपि सम्यक् एव.
षष्ठी अपि, किन्तु तत्र यदि षष्ठी इति चिन्तयामः किं भवति, तत्र अर्थभेदः भवति खलु.
आम् आं महोदय.
गृहात् नद्याः जलं, नद्यात् नद्याः जलं पूर्वं गृहे गृहम् आनीतवान् अस्मि अहम्. इदानीं गृहतः नद्याः जलं मन्दिरम् आनय नयामि. तत्र नद्याः इति नद्याः जलस्य अर्थपरिवर्तनं जातम् इदानीं. किन्तु अत्र नद्याः इत्युक्ते प्रत्यक्षं नदी अस्ति. अत्र पञ्चमीविभक्ति एव साधु, षष्ठीविभक्ति साधु नास्ति. अस्तु, पाण्डवाः राजभवनात् गच्छन्ति. राजभवनम् अस्ति, पाण्डवाः ततः गच्छन्ति, राजभवनात् गच्छन्ति इति. अस्तु, अतः पञ्चमीविभक्ति तत्र खण्डद्वयं किमपि भवति. तत्र गृहमस्ति, गृहात् कोऽपि गच्छति, अथवा मन्दिरात् कोऽपि आगच्छति. तत्र एकः खण्डः अस्ति मन्दिरम्, अन्यत्र कोऽपि गच्छति इति. तादृश किं ब्रेक् इति तादृश अर्थे तत्र केवलम् एकं नास्ति, तत्र खण्डद्वयमस्ति इति तादृश अर्थे. तत्र रथमस्ति, अन्यत् अस्ति, अर्जुनः रथात् अवतरति इति. मथुरा अस्ति, मथुरायाः आगच्छति इति. अस्तु, तत्र पञ्चमीभक्तिरूपं पश्यामः. तत्र एक अकारान्तपुल्लिङ्गे रूपं लोभः इति दत्तमस्ति. तत्र शीतलभगिनी रूप पञ्चमीभक्तिरूपाणि पठति वा?
आम् महोदय. लोभः, लोभात्, लोभाभ्यां, लोभेभ्यः.
हा, अपि
आननम्, आननात्, आननाभ्याम्, आननेभ्यः.
जिह्वा,
जिह्वायाः, जिह्वाभ्यां, जिह्वाभ्यः.
नदी,
नद्याः, नदीभ्यां, नदीभ्यः.
हा, इति समीचीनम्. अस्तु, इदानीम् अरुणा भगिनी, तत्र रथात् इति अस्ति, तस्य रथात् इति पञ्चमीभक्ति वचनं किं? तत्र
रथ पुंलिङ्गशब्द, अकारान्त पुंलिङ्गशब्द,
रथः इति. रथात् इति अस्ति, वचनं किं तत्र?
एकवचनमेव.
एकवचनम्. इदानीं द्विवचनरूपम् अपि बहुवचनरूपं किम् अस्ति तत्र?
रथाभ्यां, रथेभ्यः.
रथेभ्यः, समीचीनं भगिनि. अस्तु, उषा भगिनी, मथुरायाः इति अस्ति, तत्र वचनं किम्?
मथुरायाः, कृष्णः, एकवचनम् अस्ति महोदय, पञ्चमी विभक्ति. मथुराभ्यां, मथुराभ्यः.
मथुराभ्यः, अस्तु. तत्र केवलम् अकारान्त पुल्लिङ्गे एव एभ्यः इति भवति, अपि नपुंसकलिङ्गे अपि एभ्यः इति भवति. तदनन्तरम् आभ्यः, तदनन्तरम् ईकारान्ते ईभ्यः इति भवति. अस्तु, समीचीनं. शुभा भगिनी, तत्र नद्याः जलम् आनयन्ति इति, नद्याः इति एकवचने
अस्ति, पञ्चमी भवति. नद्याः, नदीभ्यां, नदीभ्यः.
नदीभ्यः इति अस्ति, समीचीनम्. अस्तु, मधुसूदन महोदय, राजभवनात् इति, तत्र द्विवचने बहुवचने रूपं किं भवति?
राजभवनात्, राजभवनेभ्यः, राजभवने
राजभवनाभ्यां राजभवनाभ्यां राजभवनेभ्यः
राजभवनेभ्यः समीचीनं महोदय. अस्तु, इदानीं तत्र पश्यामः तत्र किं किम् अस्ति इति. अस्तु, तत्र श्रीप्रिया भगिनी अग्रे पठति वा तत्र?
आम् महोदय. उच्चैः पठत जानीत च हिमगिरेः गङ्गा प्रवहति.
हा, तत्र रक्तवर्णे हिमगिरेः दत्तमस्ति इत्युक्ते पञ्चमीविभक्तिरूपम् इति. तत्र प्रथमविभक्तिरूपं किम् इति जानाति वा?
हिमगिरिः.
हा, हिमगिरिः इति. हा, अतः तत्र अग्रिमे पुटे पञ्चमीविभक्तिरूपाणि दत्तानि सन्ति. तत्र अकारान्त ईकारान्त सर्वं दत्तानि सन्ति. तत्र गिरेः इति अस्ति, गिरिः इति. अतः तत्र अग्रिमे पुटे पश्यतु, तत्र कविः इति अस्ति. अतः हिमगिरेः इति एकवचने अस्ति. द्विवचने बहुवचने किं भवति?
हिमगिरिभ्यां.
हा, हिमगिरिभ्यः. समीचीनं भगिनि. हा, हिमगिरेः गङ्गा प्रवहति. तत्र हिमगिरिः अस्ति, ततः गङ्गा प्रवहति. ततः गङ्गा प्रवहति. समीचीनं भगिनि. अस्तु, बालचेतनी महोदय अग्रिमम्.
महोदय, अम्बा पाणिभ्यां कङ्कणानि निष्कासयति.
कङ्कणानि. हा,
कङ्कणानि निष्कासयति.
हा,
पाणिः पाणिः वाक् पाणिपादौ पाणि महोदय हस्तः तत्र पाणिः इति
पाणिः अहं चिन्तयामि पाणिः एव पुल्लिङ्गे इति मन्ये.
पुल्लिङ्गे अस्ति. हरिशब्दवदस्ति वा महोदय?
कविशब्दवत् एव.
पाणेः.
पाणेः एकवचने, किन्तु अत्र पाणिभ्याम् इति दत्तमस्ति.
आम्.
हा, कङ्कणं कङ्कणानि कङ्कणानि. हा, पाणिभ्यां द्विवचनं, कङ्कणानि बहुवचनं. कङ्कणानि निष्कासयति. तत्र पाणिभ्याम् इति अस्ति. तत्र इदानीं निष्कासित अम्बा निष्कासयति, किन्तु तस्य पूर्वं कङ्कणानि कुत्र सन्ति?
हस्ते.
पाणिभ्यां सन्ति.
न न, पाणिभ्याम् इति पञ्चमीविभक्ति भवति अथवा षष्ठी विभक्ति भवति. पञ्चमी भवति, तृतीया भवति, तृतीया भवति, चतुर्थी भवति, पञ्चमी भवति. पाणिभ्याम् इति स्थाने सप्तमी विभक्तिरूपं कोऽपि जान वदति वा?
अण्योः.
हा, किमस्ति? हरे हरिः शब्दस्य हरिषु. हा, अतः अत्र किं भवति? अतः तत्र अम्बा निष्कासयति स्थाने कङ्कणानि अम्बायाः कङ्कणानि कुत्र सन्ति? अम्बायाः कङ्कणानि पाण्योः सन्ति. अम्बा पाणिभ्यां कङ्कणानि निष्कासयति. अतः अस्तु, समीचीनं. हा, अग्रे
महोदय अन्यैः अवकाशं ददातु.
ददामि महोदय. हा, शीतल भगिनी अग्रे.
भवतः न महोदय, कोऽपि मध्ये मध्ये करोति, वार्तालापं करोति.
अस्ति,
अन्यैः अवकाशं ददाति चेत् ते अभ्यासं भविष्यति, न तु भविष्यति न अभ्यासं न.
अस्तु अस्तु अस्तु. हा हा, अस्तु अस्तु. सत्यं सत्यं महोदय, सत्यम्. अस्तु, हा, इदानीम् अवगच्छामि यत् भवान् वक्तुम् इष्टवान् इति. अस्तु अस्तु महोदय, तत् कुर्मः. अस्तु, शीतल भगिनी अग्रे.
आं महोदय. गिरिभ्यः नद्यः प्रवहन्ति गिरिः गिरिभ्यां गिरिभ्यः
न गिरिः न किम् अस्ति एकवचने किम् अस्ति
गिरिः गिरिः हरिः हरिवत्
अस्तु प्रथमविभक्तिरूपम् अस्तु प्रथमविभक्तिरूपं वदतु गिरिः गिरि गिरयः इदानीं पञ्चमीविभक्तिरूपं किम् अस्ति
गिरे गिरेः
हा पूर्वमेव उपरि एव अस्ति खलु हिमगिरेः इति गिरेः
गिरेः गिरि गिरिभ्यां गिरिभ्यः
गिरिभ्यः हा समीचीनं गिरिभ्यः नद्यः प्रवहन्ति गिरयः सन्ति इदानीं सप्तमीविभक्तिरूपं किम् अस्ति गिरयः इति पदस्य गिरयः इति पदस्य सप्तमीविभक्तिरूपं किम् अस्ति कोऽपि वदति वा
गिरिभ्यः
सप्तमीविभक्तिरूपं गिरयः
गिरिषु
गिरिषु हा बहुवचनं बहुवचनं सप्तमीविभक्ति गिरिषु गिरिषु नद्यः सन्ति ततः ते प्रवहन्ति ततः तेन ताः नदीः नदी इति ताः प्रवहन्ति गिरिभ्यः नद्यः प्रवहन्ति अस्तु अग्रे श्रीप्रिया भगिनी करोति वा
इक्षोः शर्करां निर्मान्ति प्रथमा विभक्तिः अस्ति इक्षुः इक्षोः इक्षुभ्याम् इक्षुभ्यः
समीचीनम् इक्षोः शर्करां निर्मान्ति समीचीनम् अस्तु शुभा भगिनी अग्रे
रामः
इक्षुः इत्युक्ते किं महोदय
शुगर् केन्
धन्यवादः
इक्षुकोदण्डम् इति प्रसिद्ध अस्ति भगिनि देव्याः हस्ते इक्षुकोदण्डम् इति भवति अस्तु
रामः बाहुभ्याम् आभरणानि अपसारितवान् बाहुः इति प्रथमविभक्ति एकवचनरूपं
सत्यं भगिनि
बाहो गुरुः गुरुः गुरु बाहु इति द्विवचनं
सत्यं गुरुः गुरु गुरवः बाहुः
बाहु बाहु
बाहवः सत्यं भगिनि बाहुभ्याम् आभरणानि उपसारितवान् उपसारितवान् इत्युक्ते निष्कासितवान् रिमूव्ड् इति
पञ्चमविभक्तिरूपं वक्तव्यं बाहोः बाहुभ्यां बाहुभ्यः
सत्यं भगिनि समीचीनं समीचीनम् अस्तु अग्रे उषा भगिनि
शिष्याः गुरुभ्यः पठन्ति गुरोः अस्ति महोदय एकवचने गुरोः गुरुभ्यां गुरुभ्यः
समीचीनं शिष्याः गुरुभ्यः पठन्ति समीचीनं समीचीनम् उमा भगिनि
भरतः भ्रातुः पादुके स्वीकृतवान् भ्रातुः एकवचनं भ्रातृभ्यां भ्रातृभ्यः
समीचीनं भ्रातुः भ्रातृभ्यां भ्रातृभ्यः पादुके अस्ति पादुके किम् अस्ति तत्र
द्विवचनं पादुका पादुके पादुकाः
समीचीनं भगिनि पादुके स्वीकृतवान् तत्र विभक्ति का तत्र पादुके इति
द्वितीया
किं स्वीकृतवान् कर्मपदं पादुके समीचीनम् अस्तु अग्रे अरुणा भगिनी
सुपुत्रः मातापितृभ्याम् आशीर्वादं प्राप्नोति मातापितुः
तत्र तत्र मातापितृभ्याम् एव भवति, द्वयं द्विवचने अस्ति इति कृत्वा मातापितृभ्याम् एव तत्र समीचीनं. केवलं पिता अस्ति चेत् किम् अस्ति इति वदतु, अथवा माता अस्ति चेत् किं भवति इति वदतु तत्र.
पुत्रः मातुः आशीर्वादं प्राप्नोति
इति. समीचीनं भगिनि, अस्तु.
पुत्रः पितुः आशीर्वादं प्राप्नोति.
हा समीचीनं भगिनि, हा समीचीनम्, अस्तु. अग्रे मधुसूदन महोदय.
महोदय, गायकः श्रोतृभ्यां प्रशंसां प्राप्तवान्. गायकः श्रोतृभ्यां श्रोतृभ्यः
न न, तत्र गायकः अस्ति, सः किमपि गाय सः किमपि गायति, तदनन्तरं प्रशंसां प्राप्नोति सः. इदानीं प्रश्नः अस्ति, तत्र कति जनाः तत्र आसन्?
बहुजनाः, बहूनि जनाः, अनेकानि जनाः.
श्रोतृभ्याम् इति अस्ति, श्रोतृभ्याम् इति पदस्य वचनं किम्?
वचनं बहुवचनं चिन्तयामि.
श्रोतु, तत्र श्रोतुः इति अस्ति, श्रोतृ, श्रोतृ इति
श्रोतृ,
तत्र
श्रोतृभ्यां अत्र द्विवचनम्
द्विवचने द्विवचने अस्ति. हा, श्रोतुः इति श्रोतृभ्यां श्रोतृभ्यः
श्रोतृभ्यः श्रोतृभ्यः.
हा, प्रथमविभक्तिरूपम् अस्ति श्रोता इति. श्रोता श्रुति, श्रुति अस्ति, यः यस्य श्रोता अस्ति. श्रुति, यत् शृण्मः तत् श्रुति अस्ति, यः शृणोति सः श्रोता अस्ति. तत्र श्रोतुः इति पञ्चमीविभक्ति एकवचनरूपं, श्रोतृभ्यां द्विवचनरूपं, श्रोतृभ्यः बहुवचनरूपम्. अतः तत्र कति जनाः सन्ति तत्र? जनद्वयमेव, जनद्वयमस्ति. अथवा श्रोतृभ्यां प्रशंसां प्राप्तवान्, अथवा अनेकाः सन्ति किन्तु केवलं जनद्वयमेव प्रशंसां कृतवन्तः, तदपि न जानीमः. अस्तु, हा अस्तु. अग्रे बालचैतन्य महोदय, अग्रे अग्रिमं करोति वा?
दघ्नः नवनीतं भवति.
एतत् किञ्चित् विशेषपदम् अस्ति. दधि इति, दधि इति समीचीनं महोदय. तत्र दध्नः भवति पञ्चमीविभक्ति एकवचनरूपम् इति मन्ये. दधिः, दधिः,
दध्नः महोदय,
दध्नः इति, किन्तु तदस्ति
प्रथम बहुवचनं नास्ति वा महोदय?
नपुंसकलिङ्गम्.
हा, किन्तु तत्र दध्नः इति पञ्चमीभक्तिरूपमपि अस्ति एकवचने इति मन्ये. अत्र पञ्चमीभक्ति एकवचने, तत्र एतत् बहु प्रसिद्धः अस्ति दध्नः इति. तत्र हा, तत्र वयं जानीमः खलु दध्न इति वा? ओ अस्तु, मध्ये दत्तमस्ति वा? अस्तु अस्तु,
पुंलिङ्गः शब्दः, नेम् आफ् एम् धर्मराजा इति.
हा, किन्तु तत्र दधिः इति प्रथमविभक्तिरूपम् अस्ति, दधिः इति, तस्य विभक्ति आवश्यकं भगिनि, दधि इति, दधि पदस्य पञ्चविभक्तिरूपं किम् अस्ति? अस्तु, हा अस्तु. अतः तत्र पञ्चमीविभक्तिरूपं प्राप्तवन्तः खलु, तत्र दध्नः इति पञ्चमीविभक्तिरूपम् अस्ति खलु तत्र. दधी शब्दस्य पञ्चमीविभक्ति एकवचनरूपं ततः नवनीतं भवति दधिः अस्ति ततः नवनीतं भवति दध्नः नवनीतं भवति वनचित्री महोदय समीचीनं वा
महोदय दधि इति इकारान्त नपुंसकलिङ्ग अस्ति चेत् महोदय दध्नः तत्र कथं भवति
विशेषपदम् अस्ति महोदय तत् नपुंसकलिङ्गपदमेव तत्र कीदृशपदम् इति उक्तवन्तः सर्वे इकारान्तनपुंसकलिङ्गपदं हा किन्तु अन्य तादृशपदं कोऽपि स्मरति वा किञ्चित् विशेषपदम् अस्ति अस्तु अस्तु धन्यवादः
शब्दमन्त्रिपुस्तके
दत्तमस्ति अस्तु हा किञ्चित् विशेषपदम् अस्ति दधि इति अस्तु तत्र दध्नः इति हा
महोदय महोदय
दधि दधि इति इकारान्त नपुंसकलिङ्गपदम् इति उक्तम्
अहो अहम् अन्यत् पश्यामि तत्र तु सामान्यतः एव दधि दधिनि दधिनि तदेव तत्र अतः पृच्छामि
अस्तु महोदय किन्तु तत्र किं भवति प्रथमविभक्तिरूपं समानं भवति किन्तु किन्तु तत्र विशेषपदम् अस्ति
पञ्चमी षष्टि तु दधिनः इति दत्तं महोदय
शब्दमञ्जर्यां वा
न महोदय एतत्तु आन्लैन्
अस्तु 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 किन्तु एतत् किञ्चित् विशेषपदम् अस्ति महोदय दध्नः दध्नः एव पञ्चमीविभक्तिरूपम् अस्ति अत्र मुद्रणदोषः नास्ति अत्र
दग्नः दधिभ्यां दधिभ्यः दग्नः दग्नोः दग्नां दग्नि सप्तमी दग्नि
दध्न दध्न घ इति नास्ति भगिनि ध इति प्रायशः अस्ति खलु
दध्नः महोदय न दध्नः
दध्नः
इकारान्तः नपुंसकलिङ्गः दधि शब्दः
इकारान्त
नपुंसकलिङ्ग दधि शब्दः
दधि शब्दः हा तद् विशेषम् अस्ति हा अन्य इकारान्तपद नपुंसकलिङ्गवत् नास्ति खलु तद् हा तत्र इकारान्त नपुंसकलिङ्गपदम् इति केवलम् एकमेव विधम् अस्ति इति न वक्तुं शक्नुमः खलु तत्र द्विविधः बहु एकस्य इकारान्त नपुंसकलिङ्गपदस्य विभक्तेः ज्ञानेन अन्यस्य कर्तुं शक्नुमः इति नास्ति खलु एतद् दधि शब्द किञ्चित् विशेषः विशेषपदम् अस्ति इति मन्ये अस्तु तर्हि तत्र अग्रे तत् तत्तु अत्र न दत्तमस्ति दधि शब्दः अत्र कोष्टके हा अस्तु अग्रे गच्छामः तत्र एतावत् कः न उक्तवान् अत्र उक्तवती सर्वे प्रायश कृतवन्तः वा अस्तु इदानीं उषा भगिनी अग्रे करोति वा
आम् महोदय क्षम्यताम् दधि शुचि आदि सुरभि ये सर्वे नपुंसकवारि अपि
अस्तु किन्तु तत्र द्वैविध्यम् अस्ति वा ईकारान्त नपुंसकलिङ्गपदे अन्यत् अन्यत् अन्य
रूपं
न केवलम् एक सर्वे सर्वाणि इकारान्त नपुंसकलिङ्गपदानि तेषां विभक्ति समानं विभक्ति समानं भवति वा
वारि
इति प्रायशः अस्ति किन्तु तत्र अकारान्त पुल्लिङ्गः इति वदामश्चेत् भगिनि तत्र एकमेव अस्ति खलु किन्तु अकारान्तपुल्लिङ्ग किन्तु यदि वयं सकारान्तपदं पश्यामः नकारान्तपदं पश्यामः तत्र बहुविधाः सन्ति तत्र एक हा अतः विशेषपदानि अनेकानि सन्ति तत् अतः तेषां ज्ञानं सुलभतया न भवति अत्र दधि शब्दः किञ्चित् विशेषम् इति मन्ये
महोदय पुंलिङ्गश इकारान्त पुंलिङ्गशब्दे शब्देषु अपि हरिशब्दः पतिः
पतिशब्दविशेषपदम् अस्ति सत्यं भगिनि सत्यं सखी अपि हा उत्तम उदाहरणं हा उत्तम उदाहरणं भगिनि हा अतः पश्यतु तत्र वयं किं चिन्तयामः इकारन्त पुल्लिङ्गपदम् अस्तु तद् हरिशब्दवत् अथवा कविशब्दवत् भवति इति किन्तु तादृशः नास्ति पतिशब्दः इकारन्त पुल्लिङ्गपदम् अस्ति किन्तु तस्य विभक्तिरूपाणि भिन्नानि सन्ति तत्र हरिशब्दवत् अथवा कविशब्दवत् नास्ति अपि सखी अपि किञ्चित् भेदः अस्ति अतः भिन्ना अस्ति अतः तत्र दधि शब्दः अपि किञ्चित् विशेषपदम् इति मन्ये अस्तु अस्तु प्रथमतया अस्तु अग्रे उषा भगिनी
माता मधुनः पिपीलिकां निवारयति मधुनः मधु अस्ति प्रातिपदिकं पञ्चमे भक्ति एकवचनं मधुनः मधुभ्यां मधुभ्यः इति अस्ति
तत्र अर्थः तत्र वाक्यस्य वाक्यं किं वदति इति अवगच्छति वा
माता मधुनः पिपीलिकां निवारयति माता पिपीलिका मधुनः
प्रायशः तत्र मधु इति मधुनी इति प्रायशः अस्ति वा तत्र मधु इति सप्तमीभक्तिरूपं प्रायशः पिपीलिका मधुनी अस्ति माता ततः पिपीलिकां निवारयति शी रिमूव्स् इट् फ्रम् देयर् अस्तु समीचीनं भगिनि अस्तु उमा भगिनी अग्रे
एकनिमिषं देवः दुर्गत्याः अस्मान् रक्षति दुर्गत्योः दुर्गतीनाम् एवं
दुर्गत्याः इति दुर्गत्योः किमर्थं
दुर्गत्याः दुर्गतिभ्यां दुर्गतिभिः दुर्गतिभ्यः
दुर्गतिभ्यः दुर्गतिभ्यां दुर्गतिभ्यः तत्र दुर्गतिः अस्ति देवः दुर्गत्याः अस्मान् रक्षति तत्र यदि तस्मात् इति पुल्लिङ्गे भवति किमपि अस्ति तस्मात् रक्षणं अस्मान् रक्षति इति वक्तुं शक्नुमः किन्तु अत्र दुर्गति इति स्त्रीलिङ्गे अस्ति अतः तस्मात् इति स्थाने किं भवति तत्र तस्याः रक्षति इति भवति तस्याः इति पञ्चमीभक्तिरूपम् अस्ति दुर्गतिः अस्ति देवः तस्याः अस्मान् रक्षति तस्मात् इति अस्ति किन्तु
कुतः समीचीनं वा अत्र
किं भगिनि
कुतः
अपि अथवा कस्मात् कुतः सत्यं भगिनि कुतः अस्मान् रक्षति दुर्गत्याः अस्मान् रक्षति सत्यं भगिनि तदपि तत्र प्रश्नः भवितुम् अर्हति अस्तु अग्रे शुभा भगिनि
कुतः इत्युक्ते फ्रम् वेर् एव भवति न महोदय कुतः
तत्र पञ्चमीभक्ति अर्थे इति चिन्तयित्वा अहं तत्र केवलं फ्रम् वेर् अत्र अस्ति दुर्गतिः इति तत्र
अत्र कुतः इति शब्दस्य प्रयोगं कर्तुं शक्नुमः वा महोदय?
अहम् इति चिन्तयामि भगिनि, किन्तु प्रश्नः समीचीनः एव, पुनः एकवारं चिन्तयित्वा वदामि अग्रिमवर्गे, किन्तु अहम् इदानीं चिन्तयामि कर्तुं शक्नुमः इति, किन्तु चिन्तनं करोमि. हा हा अस्तु भगिनि. हा शुभा भगिनि.
काकस्य चञ्च्वाः अपूपं पतति. चञ्चुः इति उकारान्त स्त्रीलिङ्गं वा महोदय? अहं न जानामि.
हा एतत् चञ्च्वा वधु शब्दवत् अस्ति इति मन्ये भगिनि.
दीर्घ उकारः वा? चञ्चुः ह्रस्व उकारः खलु?
न न दीर्घ उकारः इति वधु इति वध्वाः इति अस्ति खलु?
धेनुः अपि धेन्वाः इति एव अस्ति.
धेन्वाः अपि अस्ति. चञ्चुः
चञ्चुः चञ्चुः उकारान्त ह्रस्व उकारः इति अहं
न स्मरामि भगिनि. हा द्रष्टव्यमस्ति तत्. हा
डिक्षनरी द्वयमपि अस्ति.
हा अस्तु. अतः तत्र तत्र किं समस्या नास्ति, उकारान्त ऊकारान्तद्वयमपि वक्तुं शक्नुमः. अस्तु.
चञ्च्वाः चञ्चुभ्यां चञ्चुभ्यः
चञ्चुभ्यः समीचीनं. अथवा चञ्चुभ्यः अथवा चञ्चुभ्यः द्वयमपि साधु. अस्तु
क्षम्यतां महोदय, स्पोकन् संस्कृत डिक्षनरि पश्यामः. चञ्चु विशेषणम् अर्थः रिनौण्ड् आर् फेमस् फार्.
न न न तत् एकमस्ति, तत् एकमस्ति. अत्र काकस्य चञ्चुः इति दत्तमस्ति. अतः अन्यत्
हर्ष्व उकार चञ्चु विशेषणम् अर्थः रिनौण्ड् आर् फेमस् फार् चञ्चु.
धन्यवादः भगिनि. किन्तु दीर्घ उकारः अस्तु, अतः दीर्घ उकारः एव. अस्तु अस्तु धन्यवादः भगिनि, समीचीनम् अस्ति इदानीम्. अस्तु शुभ भगिनी, उत्तरं प्राप्तं. दीर्घ उकारः एव.
तर्हि चञ्च्वाः चञ्चुभ्यां चञ्चुभ्यः
हा इति भवति. अरुणा भगिनी धन्यवादः. अस्तु अग्रे शीतल भगिनि.
आं महोदय. जनाः धेनुभ्यः क्षीरं प्राप्नुवन्ति. धेनु धेनुभ्यां धेनुभ्यः.
अत्र वचनं वचनं किं तत्र?
धेनुः प्रथम
धेनुभ्यः इति
धेनुभ्यः बहुवचनं
बहुवचनं. धेनुभ्यः क्षीरं प्राप्नुवन्ति, समीचीनं भगिनि. अस्तु मधुसूदन महोदय अग्रे.
सः मातुः अनुग्रहं प्राप्नोति. सः मातुः मातुभ्यां मातुभ्यः सः मातुः अनुग्रहं प्राप्नोति.
तत्र अवगच्छति वा वाक्यम्?
आम् महोदय. मातु माता माता
माता अस्ति
माता अस्ति सः कोऽपि अपि एषः सः किं बालकः अपि अनुग्रहं प्राप्नोति.
अनुग्रह प्रश्नः किं भवति?
किम् अनुग्रहं प्राप्नोति?
न न किम् अनुग्रहं न मातुः इति पञ्च कस्मात् अथवा कस्याः अपि अत्र वक्तुं शक्नुमः. कस्याः अनुग्रहं प्राप्नोति तत्र मातुः अनुग्रहं, यतः वयं दृष्टवन्तः गोपिकाः नद्याः जलम् आनयन्ति इति, तादृश एव अत्रापि अर्थद्वयं भवति इति मन्ये खलु. सः मातुः अनुग्रहं प्राप्नोति, किं किम् अर्थद्वयम् अस्ति तत्र, कोऽपि वदति वा?
मदर्स् कस्य अनुग्रहम् तस्याः अनुग्रहम् अपि तस्मात् अनुग्रहम्
सत्यं सत्यं फ्रम् ब्लेस्सिङ्ग्स् फ्रम् मदर् अपि मदर्स् ब्लेस्सिङ्ग्स् द्वयमपि समानार्थक एव किन्तु किञ्चित् भेदः अस्ति तत्र एकमस्ति षष्ठीविभक्ति अन्यत् अस्ति पञ्चमीविभक्ति अस्तु समीचीनम् अस्तु भानचित्तनी महोदय वदतु महोदय मधुसूदन महोदय प्रश्नः अस्ति वा
धन्यवादः
भानचित्तनी महोदय वदतु अन्तिमं
महोदय सर्वे मातृभ्यः आशीर्वादं प्राप्नुवन्ति
तत्र
मातृभ्यः इति महोदय द्विवचनं महोदय
मातृभ्यः किमर्थं मातृभ्यः किमर्थं द्विवचनं
मातुः
तत्र बहुवचनमेव सर्वे
मातृभ्यः आशीर्वादं
प्राप्नुवन्ति समीचीनं महोदय अस्तु तत्रापि तत्र अर्थद्वयं भवति किन्तु समानार्थक एव किन्तु किञ्चित् तत्र विभक्तिभेदः भवति किन्तु समानार्थक मातृभ्यः इति अस्तु समीचीनम् अतः किञ्चित् अद्य परिचयः तु जातः पञ्चमीविभक्तेः रूपस्य अग्रिमवर्गे अधिक अभ्यासः भवति तदनन्तरं तस्य प्रयोगः अपि कुर्मः प्रयोगमपि कुर्मः पूर्वं परम् इति पञ्चमीविभक्तेः अपि बहवः प्रयोगाः सन्ति इति अस्तु तर्हि अन्यप्रश्नः अस्ति वा तत्र एकः आसीत् तत्र किं कुतः इति वक्तुं शक्नुमः इति एकमासीत् अन्यप्रश्नः तद् तस्य उत्तरं न जानामि चिन्तयित्वा वदामि अन्यप्रश्नः अस्ति वा अस्तु तर्हि अस्तु सर्वेभ्यो नमस्कारः सर्वेभ्यो नमः धन्यवादः अग्रिमवर्गे मिलामः नमस्कारः
धन्यवादः हरिः ओं महोदय बहु धन्यवादः
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 धन्यवादः